एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। सर्वकारस्य शिक्षक महासंघस्य च मध्ये नवसूत्रीय सहमति धृतास्ति। मन्त्रिपरिषदः निर्णयं श्रावयन् शिक्षा विज्ञान प्रविधि मन्त्री रघुजी पन्त सर्वकारस्य शिक्षक महासंघस्य च मध्ये सहमतिः सम्भूतास्तीति असूचयत्। सहमत्या सैव शिक्षकैः आन्दोलनं परित्यज्य विद्यालय प्रवेशाभियाने संलग्नताय प्रतिबद्धता व्यक्तास्ति। नेपाल शिक्षक महासंघस्य अध्यक्ष लक्ष्मी किशोर सुवेदी शिक्षा विज्ञान प्रविधि मन्त्रालये ह्य उपविष्टे उपवेशे सर्वकारस्य आन्दोलनरत शिक्षकाणां च मध्ये नवसूत्रात्मिका सहमति धृतास्तीति असूचयत्। शिक्षक महासंघेन गत चैत्र मासस्य विंशात् दिवसात् काष्ठमण्डप केन्द्रितम् आन्दोलनं विधीयमानम् आसीत्। सहमत्या सैव आन्दोलनं ह्यस्तनात् दिवसादेव स्थगितम्। अद्यतः विद्यार्थिनः प्रवेशस्य परीक्षायाः कार्यक्रमाश्च आरभ्यन्ते इति असौ असूचयत। अध्यक्ष सुवेदी आगामिनः आषाढमासस्य पञ्चदश दिवसं यावद् विद्यालय शिक्षाधिनियमं क्रियान्वेतुं सहमति धृतास्तीति अज्ञापयत्। अद्य मे मासस्य प्रथम दिवसः अन्तर्राष्ट्रिय श्रमिक दिवसत्वेन आविश्वं विविधान् कार्यक्रमान् आयोज्य समायोज्यमानो वर्तते। श्रमिकेभ्यः व्यक्तिगत मर्यादायाः सम्मानस्य प्रत्याभूतिं दापयितुम् अधिकार स्थापना दिवसस्य रूपेण प्रतिवर्षं मे मासस्य प्रथम दिवसे श्रमिक दिवसोऽयं समायोज्यते। आविश्वं श्रमिकैः दिवसममं पर्वणः रूपेण समायोज्य स्वस्य अधिकाराणां सुनिश्चिततायै सर्वकाराय वृत्तिप्रदात्रे संस्थानाय च बलसर्जनस्य उद्देश्येन दिवसोऽयं विभिन्नान् कार्यक्रमान् समायोज्य समाद्रियमाणो वर्तते। अवसरेऽस्मिन् राष्ट्रपति प्रवृत्तिभिः शीर्षनेतृभिः शुभकामना सन्देशाः प्रदत्ताः वर्तन्ते। सत्तारूढैः दलैः लोकतन्त्रम् इतोऽपि सुदृढं विदात् य लोकतन्त्रोपरि जायमानानाम् आक्रमणानां सामूहिकरूपेण प्रत्युत्तरस्य प्रदानत्वेन नीतिकार्यक्रमान् आनेतुं सर्वकारः परामृष्टोऽस्ति। बालवाटारवर्तिनि प्रधानमन्त्रिनिवासे ह्य उपविष्टे सत्तारूढानां दलानाम् उपवेशे युवसु आशा विश्वासयोः सञ्चारं कर्तुम् अर्थतन्त्रं गतियुतं विधातुं सर्वकारेण व्ययस्य सीमानं वर्धयितुं च परामृष्टमस्तीति एमाले दलस्य उपमहासचिव प्रदीप ज्ञवाली अज्ञापयत्। उपमहासचिव ज्ञवाले शिक्षकै अभ्यर्थमानः अधिनियम विधेयक निर्माण प्रक्रियायाम् अस्तित्यतः शिक्षकै आन्दोलनं परित्यज्य अध्ययनाध्यापनादि कार्यम् अद्यतः प्रारभ्यते इति विश्वासम् अभिव्यनक। राष्ट्रपतिना रामचन्द्र पौडेलेन नेपाली कांग्रेस दलस्य पक्षतः प्रतिनिधि सभायाः सांसदः खमबहादुर गबुजा जो जलस्रोत सेचन राज्य मन्त्री पदे नियुक्तोऽस्ति। राष्ट्रपतिना पौडेलेन गताषाढमासस्य एकत्रिंशे दिवसे संघटितायां मन्त्रिपरिषदि नेपालस्य संविधानस्य अनुसारेण प्रधानमन्त्रिणः केपी शर्मा ओलिनः परामर्शनेन गर्बुजा राज्यमन्त्री पदे नियुक्तोऽस्तीति राष्ट्रपतेः कार्यालयेन ज्ञापितं वर्तते। ह्यदिवा प्रहरिणा निगृहीतः नागरिकोन्मुक्तिदलस्य संरक्षकः रेशम चौधरी कारागारात् मुक्तो वर्तते। सर्वोच्च न्यायालयस्य निर्णयस्य क्रियान्वयन निर्देशनालयस्य अधिकृतेन महिमान सिंहविष्टेन लिखितस्य पत्रस्य आधारेण संरक्षकम् चौधरीणम् ह्यदिवा निगृह्य पुनः सर्वोच्च न्यायालयेन पत्रम् अनधिकृतम् अस्तीति ज्ञापनस्य पश्चात् संरक्षकः चौधरी मुक्तोस्ति। प्रधानमन्त्री केपी शर्मा ओली राष्ट्रिय स्वास्थ्य सुरक्षा कार्यक्रमे नेत्र चिकित्सा समायोज्यते इति उक्तवान् वर्तते। नेत्र चिकित्सायां संलग्नाभि स्वास्थ्य संस्थाभि ह्य काष्ठमण्डपे आयोजितस्य अन्तर्राष्ट्रिय सम्मेलनस्य उद्घाटनं विदधान प्रधानमन्त्री ओली दृष्टिक्षयस्य अवस्थायां विद्यमानान् जनान् केन्द्रीकृत्य प्राथमिक स्वास्थ्य सेवा प्रणाल्याम् आवश्यक सेवायां नेत्र चिकित्सायाः समायोजनं प्राथमिकतायां स्थापितम् उत्तम स्थिति अगदत। स्वास्थ्य जनसंख्या मंत्री प्रदीप पौडेल नेपालेन नेत्रोपचारमितोपि सुदृढ़ विधातुं राष्ट्रीय स्वास्थ्य प्रणाली एकीकृतां विधातुं विद्यालयेषु कार्यस्थलेषु समुदायेषु च सुदृढ़ सहकार्यस्य व्यवस्था विधीयते इति असूचयत। सम्मेलने आसन्न शताधिक राष्ट्राणां पञ्चशताधिकाः जनाः सहभागिनो वर्तन्ते। प्रधानमन्त्री केपी शर्मा ओली समाजे जागरणस्य आनयनस्य कार्ये नैरन्तर्येण प्रवर्तितुं कलाकर्मिणः अनुरणादि। राष्ट्रिय जनसांस्कृतिक महासंघ नेपालस्य नवम राष्ट्रिय महाधिवेशनस्य ह्य काष्ठमण्डपे उद्घाटनं विदधान प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च ओली जनताया समृद्धये स्वतन्त्रताये शान्तये च कलाकर्मिभिः स्वस्य सर्जनात्मक अभियानाय तीव्रतायां प्रदत्तायां सत्यां तेन समाजाय अनुकूल रूपान्तरणाय सहयोग प्राप्नोति इति विचारं व्यक्तवान्। तदवसरे प्रधानमन्त्री ओली कस्यचित् उपेक्षायाः प्रत्यादेशने पतनस्य भयेन विना स्वस्य स्वतन्त्रं विचारं न त्यक्तुं कलाकर्मिणः अन्वरुणात्। प्रधानमन्त्रिणै केपी शर्मा ओलीले नेकपा एकीकृत समाजवादी दलेन देशस्य आर्थिक सामाजिक प्रवृत्तिषु क्षेत्रेषु सुधाराय ह्य याचनापत्रम् अर्पितमस्ति। बालवाटार वर्तिनी प्रधानमन्त्री निवासे प्रधानमन्त्रिणे ओलीने दलाध्यक्षेण माधव कुमार नेपालेन सहितैः पदाधिकारिभिः याचनापत्रम् अर्पितमस्ति। याचनापत्रे कृष्युद्योग शिक्षा स्वास्थ्य पर्यटन सूचना प्रविधि पूर्वाधार सुशासन विदेश नीति सम्बद्धेषु क्षेत्रेषु संविधानस्य पुनरवलोकनाय च परामृष्टम् वर्तते। काष्ठमण्डप महानगरपालिकया लक्षितवर्गस्य विद्यार्थिभ्य छात्रवृत्ति प्रदानस्य विवरणम् आगामिनः ज्येष्ठ मासस्य प्रथम सप्ताहम् यावत् प्रदातुं संस्थागत विद्यालयाः अनुरुद्धाः सन्ति। सम्बद्धेभ्य छात्रेभ्य अभिभावकेभ्यश्च आवेदनं प्रस्तुतुं प्राप्त छात्रवृत्तीनां छात्राणां नामावल्या सूचनापट्टिकायां स्थापनं कृत्वा तस्य विवरणम् आगामिनः ज्येष्ठ मासस्य प्रथम सप्ताहाभ्यन्तरे काष्ठमण्डप महानगरपालिकाया शिक्षा विभागे प्रेषयितुं च अनुरोधमस्ति। महानगरस्य शिक्षा विभागस्य शिक्षाधिकृतः नेत्र नारायण पौडेलः असूचयत् इति समाचाराः।